एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः भाषते संस्कृतभाषा न केवलं नेपाल भारतयोः एव अपितु विश्वस्यैव सम्पदस्ति। काष्ठमण्डपे समायोज्यमानस्य एकोनविंशस्य विश्व संस्कृत सम्मेलनस्य ह्यः समुद्घाटनं विदधानः राष्ट्रपतिः पौडेलः अवदत् पूर्वं संस्कृतभाषायाः साहित्यस्य संस्कृतेश्च प्रभावः दक्षिणैशयिक क्षेत्रे एव दृश्यते स्म, परन्तु अधुना क्षेत्रमिदं अतिक्राम्य आविश्वम् अस्याः भाषायाः गभीरः प्रभावः दृश्यते। राष्ट्रपतिना पौडेलेन राजर्षिः जनकस्य, शान्तिनायकस्य, भगवतो बुद्धस्य, व्याकरणस्य, पितुः पाणिनेः, महायोगिनः गोरक्षनाथस्य, महर्षे याज्ञवल्क्यस्य, वेदव्यासस्य च जन्मभूमौ अस्मिन् नेपालदेशे इतः 2000 वर्षेभ्य पूर्वं लिच्छविकाले एव संस्कृतं राजकीयभाषा आसीदिति अस्माकं गौरवस्य विषयः अस्तीति उक्तमासीत्। कार्यक्रमे संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणा बद्री प्रसाद पाण्डे विधेन समग्रस्य विश्वस्य विभिन्नेभ्य देशेभ्य समागतानां सर्वेषां विदुषां वेदभूमौ नेपाले स्वागतं कुर्वता सम्मेलनस्य पूर्ण सफलतायाः शुभकामना प्रकटिता आसीत्। एकोनविंश संस्कृत सम्मेलने विशिष्टातिथित्वेन भारतात् समागतेन संस्कृत वाङ्मयस्य मूर्धन्य विदुषा परमहंस परिव्राजकाचार्येण श्रीमता श्रीमन्नारायण रामानुज चिन्नजीयर स्वामीवरेण संस्कृत भाषा न केवलं भौतिक विकासस्य कृते वर्तते अपितु आध्यात्मिक विकासस्य शान्तेश्च कृते अस्तीति हेतुः अधुना युद्धमये विश्वे शान्ति स्थापनायै च संस्कृत वाङ्मयम् अनुसर्तव्यं भवतीति उक्तमासीत्। काष्ठमण्डपस्य कमलादिस्थानवर्तिनी नेपाल प्रज्ञा प्रतिष्ठाने समायोजिते समुद्घाटन समारोहे सम्मेलनस्य नेपाल संयोजकेन प्राध्यापकेन डाक्टर काशीनाथ न्यौपानेभिधेन संरक्षकेण श्रीनिवास वरखेडी महाभागेन अध्यक्षेण दीप्ति त्रिपाठिना च सम्बोधनं विहितमासीत्। विश्व संस्कृत सम्मेलन आयोजक समितिः नेपाल संस्कृत विश्वविद्यालयस्य जैतु संस्कृतमिति संस्थायाश्च आयोजकत्वे नेपाले प्रथमवारम् आयोजितं पञ्चदिवसीयं सम्मेलनम् आगामिनं सोमवासरं यावत् चलिष्यति। सम्मेलने नेपाल भारत अमेरिका जापान बेलायत चीन थाईलैण्ड कोरिया जर्मनी क्यानडा अस्ट्रेलिया प्रभृतीनां बहुनां देशानां पारि सहस्रं संस्कृत विद्वांसः सहभागिनः सन्ति चेत् सम्मेलनेऽस्मिन् पौरस्त्य वाङ्मय सम्बद्धानि 800 अधिकानि कार्यपत्राणि च प्रस्तोष्यन्ते इति आयोजकेन सूचितमस्ति। राष्ट्रियसभायाः स्थनोपवेशेन पेयजल सेवायाः नागरिकाणां सहजतया प्राप्ति सम्बद्ध संकल्प प्रस्तावः सर्वसम्मत्या पारित कृतोऽस्ति। राष्ट्रियसभायां पेयजल सेवायाः प्रत्येकं नागरिकेषु सेवा सौविध्य प्राप्तेः अभिवृद्ध्यर्थं पेयजल स्वच्छता सम्बद्धायै संस्थायै समित्यै वा सौविध्यं प्रदातुं नेपाले एव ब्लीचिंग पाउडर इति क्षालन चूर्ण सम्बद्धम् उद्योगम् उद्घाटयितुं संकल्प प्रस्तावं प्रस्तुवन् सांसदः जगप्रसाद शर्मा मौलिकाधिकारत्वेन विद्यमानं स्वच्छ पेयजल सौविध्यं सर्वकारेण उच्च प्राथमिकतायां स्थापनीयम् इत्युक्तवान्। राष्ट्रियसभायाः उपवेशे सांसदै उत्थापितान् प्रश्नान् उत्तरयन् संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री प्रसाद पाण्डेयः नेपाले विद्यमानानां सर्वासां भाषाणां संरक्षणाय विकासाय च मन्त्रालयेन कार्यं विधीयमानमस्तीति अवदत्। उपवेशे विधायन व्यवस्थापन समितेः सभापतिः तुलसा कुमारी दहालः प्रतिनिधिसभातः ससन्देशं प्राप्तं काश्चिन् नेपालाधिनियमान् संशोधयितुं निर्मितं 80+2000 विक्रमवर्षीयं विधेयक सम्बद्धं समितेः प्रतिवेदनं प्रस्तौत्। राष्ट्रियसभायां प्रतिनिधिसभातः ससन्देशं प्राप्तम् एतत् विक्रमवर्षीयं विनियोजन विधेयकमाधृत्य सामान्य विमर्शनं सम्पन्नमस्ति। उपवेशे उपप्रधानार्थमन्त्रिणा विष्णु पौडेलेन प्रस्तुतं प्रतिनिधिसभातः ससन्देशं प्राप्तम् एतत् विक्रमवर्षीयं विनियोजन विधेयकमाधृत्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः बहुमतेन स्वीकृतोऽस्ति। राष्ट्रियसभायाः आगामिषु उपवेशेषु एतद् विक्रमवर्षीयं विनियोजन विधेयकमाधृत्य मन्त्रालयगत विनियोजन शीर्षकाणि आधृत्य विमर्शनं भविष्यति। राष्ट्रियसभायाः अपरोपवेशः परश्व रविवासरे सपादद्वादशवादने वस्ता। गृहमन्त्रिणा रमेशलेखकेन अस्मिन् वर्षायामे यस्मिन् कस्मिन्नपि दिने विपद आगन्तुं शक्नोतीति हेतुः सर्वकारः विपदः निवारणाय उद्धाराय च पूर्णसज्जावस्थायां वर्तते इत्युक्तं वर्तते। यह प्रतिनिधि सभा अन्तर्गत आया कृषि सहकारी प्राकृतिक स्रोत समिति उपवेशे गृहमन्त्रिणा लेखकेन वर्षायामे अधिकवृष्ट्या जलविप्लवस्य भूस्खलनस्य मार्गावरोधस्य च कारणेन सम्भाविताया विपद सुरक्षायै प्रतिकार्याय च सुरक्षा निकायः पूर्णसज्जावस्थायां सन्तीति ज्ञापितं वर्तते। उपवेशे विपन्न निवारण व्यवस्थापन प्राधिकरणस्य कार्यकारिधिकृतेन अभियन्त्रा दिनेश प्रसाद भट्टेन विपदः पूर्वसज्जतायाः विषयं ज्ञापयता उद्धार कार्येषु स्थानीय समुदायस्य सहयोगः भूमिका च महत्वपूर्णो भवतः इति उक्तमासीत्। तदवसरे जलवातावरण विज्ञान विभागस्य महानिर्देशकेन कमलराम जोशिना अस्य वर्षस्य वातावरणस्य पूर्वानुमानस्य विषयं ज्ञापयता अस्मिन् वर्षे सामान्य समयापेक्षया अधिका वृष्टिः भविष्यतीति ज्ञापितम् आसीत्। सर्वोच्च न्यायालयस्य प्रस्तावितानां त्रयाणां न्यायाधीशानां न्यायपरिषदः सदस्यस्य च विरुद्धे संसदीय श्रवण समितौ पञ्च न्यायिक निवेदनानि प्राप्तानि सन्ति। समितौ परामृष्टैः व्यक्तिभिः सह पञ्च संसदीय श्रवण प्रक्रियया सह सम्बद्धौ द्वौ चेति संहत्य सप्त न्यायिक निवेदनानि प्राप्तानि सन्तीति समितेः सभापतिः ईश्वरी देवी नेउपाने असूचयत्। संघीय संसदः संसदीय श्रवण समितेः ह्यस्तनोपवेशे न्यायिक निवेदनानाम् अध्ययनाय समितेः सदस्येभ्यः वितीर्णानि सन्ति। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शरद सिंह भण्डारी विभिन्न देशेषु कार्यं विदधतां श्रमिकाणां सम्मानाय बलं ददाति। कोइका नाम्न्या कोरिया अन्तर्राष्ट्रिय कार्पोरेशन एजेन्सी संस्थया ह्य काष्ठमण्डपे आयोजितस्य हामी एप नाम्नः वैद्युत सञ्जालाभिलेखस्य आप्रवासन सम्मेलनस्य च शुभारम्भं विदधानः मन्त्री भण्डारी श्रमिकाणां स्वेदजस्य कारणेन गन्तव्य राष्ट्राणां विकासः सम्भूतोऽस्तीति चर्चयन् सम्मानित श्रमाय सुरक्षिताय आप्रवासनाय च बलं दत्तमस्तीति अवदत्। तदवसरे नेपालस्य कृते कोरिया देशस्य राजदूतः पार्क तेयंग आप्रवासन क्षेत्रे नैरन्तरेण सहकार्यस्य समन्वयस्य च अपेक्षा विहिता अस्तीति प्रावोचत्। अस्य वर्षस्य मदन भण्डारी राष्ट्रिय पुरस्कारं हिमालयान् रक्षेय इति अभियानस्य अभियन्त्रे आङ छिरिङ शेर्पा प्रदातुं निर्णीतम् वर्तते। मदन भण्डारी प्रतिष्ठानेन ह्य पत्रकार सम्मेलनम् आयोज्य जननेतुः भण्डारिणः चतुस्सप्ततितम जन्म जयन्त्याः अवसरे अस्यैव आषाढ मासस्य चतुर्दशे दिवसे मदन भण्डारी राष्ट्रिय पुरस्कारः प्रदास्यते इति ज्ञापितमस्ति। अस्य पुरस्कारस्य वित्तराशि लक्षं रूप्यकाणि वर्तन्ते। इति समाचारः।